जलसाईनं जनार्दनं हरिं कृष्णं श्रीपतिं गरुडाध्वजं वराहं पुंडरीकाक्षं नृसिंहं नरकान्तकं आप्यक्तं शाश्वतं विष्णुं अनंतं अजमभयं नारायणं गदाध्यक्षं गोविंदं कीर्तिभाजनं गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरं वित्तारं जग्गपुरुषं जग्गीशं जग्गवाहकं चक्रपाणिं गदापाणिं शंखपाणिं नरोत्तमं वैकुंठं दुष्टदमनं भूगर्भं पितवाससं त्रिविक्रमं त्रिकालग्नं त्रिमूर्तिं नंदनंदनं रामं रामं हयग्रीवं भीमं रौद्रं भवोद्भवं श्रीनाथ श्रीधरं श्रीशं मंगलं मंगलायुधं दामोदरं दमुपीतं केशवं केशिशूदनं वरेण्यं वरदं विष्णुं मानदं वसुदेवजं हिरण्यारीतसन्दीप्तं पुराणं पुरुषोत्तमं सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतं हिरण्यतनुसंकासं सूर्याजूतसमप्रभं मघश्यामं चतुर्बाहुं कुशलं कमलिक्षणं ऋषिकेशं वामनं जलसायिनं जनार्दनं हरिं कृष्णं श्रीपतिं गरुडाध्वजं वराहं पुंडरीकाक्षं नृसिंहं नरकान्तकं आप्यक्तं शाश्वतं विष्णुं अनंतं अजमभयं नारायणं गदाध्यक्षं गोविंदं कीर्तिभाजनं गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरं वित्तारं जग्गपुरुषं जग्गीशं जग्गवाहकं वज्रपाणिं गदापाणिं शंखपाणिं नरोत्तमं वैकुंठं दुष्टदमनं भूगर्भं पीतवाससं त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नंदनंदनं रामं रामं हयग्रीवं भीमं रौद्रं भवोद्भवं श्रीनाथ श्रीधरं श्रीशं मंगलं मंगलायुधं दामोदरं दमुपीतं केशवं केशिशूदनं वरेण्यं वरदं विष्णुं मानदं वसुदेवजं हिरण्यारीतसन्दीप्तं पुराणं पुरुषोत्तमं सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतं हिरण्यतनुसंकासं सूर्याजूतसमप्रभं मघश्यामं चतुर्बाहुं कुशलं कमलिक्षणम् वासुदेवं ऋषिकेशं वामनं जलसायिनं जनार्दनं हरिं कृष्णं श्रीपतिं गरुडध्वजं वराहं पुण्डरीकक्षं नृसिंहं नरकान्तकम् आप्यक्तं शाश्वतं विष्णुं अनन्तं अजमद्वयं नारायणं गदाध्यक्षं गोविंदं कीर्तिभाजनं गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरं वित्तारं जग्गपुरुषं जग्गीशं जग्गवाहकं चक्रपाणिं गदापाणिं शंखपाणिं नरोत्तमं वैकुंठं दुष्टदमनं भूगर्भं पीतवाससं त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नंदनंदनं रामं रामं हयग्रीवं भीमं रौद्रं भवोद्भवं श्रीनाथ श्रीधरं श्रीशं मंगलं मंगलायुधं दामोदरं दमुपीतं केशवं केशिशूदनं वरेण्यं वरदं विष्णुं मानदं वसुदेवजं हिरण्यारीतसन्दीप्तं पुराणं पुरुषोत्तमं सकलं निष्कलं शुद्धं निर्गुणं गुणशश्वतं हिरण्यतनुशङ्कासं सूर्याजूतसमप्रभं मघश्यामं चतुर्बाहुं कुशलं कमलिक्षणम्। वासुदेवं ऋषिकेशं वामनं जलसायिनं जनार्दनं हरिं कृष्णं श्रीपतिं गरुडध्वजं वराहं पुण्डरीकक्षं नृसिंहं नरकान्तकम् आप्यक्तं शाश्वतं विष्णुं अनन्तं अजमद्वयं नारायणं गदाध्यक्षं गोविन्दं कीर्तिभाजनं गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरं वित्तारं जग्गपुरुषं जग्गीशं जग्गवाहकं चक्रपाणिं गदापाणिं शङ्खपाणिं नरोत्तमं वैकुण्ठं दुष्टदमनं भूगर्भं पितवाससं त्रिविक्रमं त्रिकालग्नं त्रिमूर्तिं नन्दनन्दनं रामं रामं हयग्रीवं भीमं रौद्रं भवोद्भवं श्रीनाथ श्रीधरं श्रीशं मङ्गलं मङ्गलायुधं दामोदरं दमुपीतं केशवं केशिशूदनं वरेण्यं वरदं विष्णुं मानदं वसुदेवजं हिरण्यारीतसन्दीप्तं पुराणं पुरुषोत्तमं सकलं निष्कलं शुद्धं निर्गुणं गुणशश्वतं हिरण्यतनुशङ्कासं सूर्याजूतसमप्रभं मघश्यामं चतुर्बाहुं कुशलं कमलिक्षणम्। वासुदेवं ऋषिकेशं वामनं जलसायिनं जनार्दनं हरिं कृष्णं श्रीपतिं गरुडध्वजं वराहं पुण्डरीकाक्षं पुंडरीकाक्षं नृसिंहं नरकान्तकं आव्यक्तं शाश्वतं विष्णुं अनंतं अजमभ्यं नारायणं गदाध्यक्षं गोविंदं कीर्तिभाजनं गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरं वित्तारं जग्गपुरुषं जग्गीशं जग्गवाहकं चक्रपाणिं गदापाणिं शंखपाणिं नरोत्तमं वैकुंठं दुष्टदमनं भूगर्भं पीतवाससं त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नंदनंदनं रामं रामं हयग्रीवं भीमं रौद्रं भवोद्भवं श्रीनाथ श्रीधरं श्रीशं मंगलं मंगलायुधं दामोदरं दमुपीतं केशवं केशिशूदनं वरेण्यं वरदं विष्णुं मोनदं वसुदेवजं हिरण्यारीतशं दीप्तं पुराणं पुरुषोत्तमं सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतं हिरण्यतनुसंकासं सूर्याजूतसमप्रभं मघश्यामं चतुर्बाहुं कुशलं कमलिक्षणं ऋषिकेशं वामनं जलसायिनं जनार्दनं हरिं कृष्णं श्रीपतिं गरुड़ध्वजं वराहं पुंडरीकाक्षं नृसिंहं नरकान्तकं आव्यक्तं शाश्वतं विष्णुं अनंतं अजमभ्यं नारायणं गदाध्यक्षं गोविंदं कीर्तिभाजनं गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरं वित्तारं जग्गपुरुषं जग्गीशं जग्गवाहकं चक्रपाणिं गदापाणिं शंखपाणिं नरोत्तमं वैकुंठं दुष्टदमनं भूगर्भं पीतवाससं त्रिवी త్రిగ్రమం త్రికాళగ్గం త్రిమూర్తిం నందనందనం రామం రామం హయగ్రీవం భీమం రౌద్రం భవుద్భవం శ్రీనాథ శ్రీధరం శ్రీశం మంగళం మంగళాయుధం దామోదరం దమూపీతం కేశవం కేశిశూదనం వరేణ్యం వరదం విష్ణుం మోనదం వసుదేవజం హిరణ్యారీతశం దీప్తం పురాణం పురుషోత్తమం సకలం నిష్కలం శుద్ధం నిర్గూణం గూఢశశ్వతం హిరణ్యతనుశంకాసం సూర్యాజూతసమప్రభం మఘశ్యామం చతుర్బాహుం కుశాలం కమలిక్షణం. ఋషికేశం వామనం జలసాయినం జనార్దనం హరిం కృష్ణం శ్రీపతిం గరుడధ్వజం వరాహం పుండరీకక్షం నృసింహం నరకాంతకం ఆప్యక్తం శాశ్వతం విష్ణుం అనంతం అజమభయం నారాయణం గదాధ్యక్షం గోవిందం కీర్తిభాజనం గోవర్ధనోద్ధరం దేవం భూధరం భువనేశ్వరం విత్తారం జగ్గపురుషం జగ్గీశం జగ్గవాహకం చక్రపాణిం గదాపాణిం శంఖపాణిం నరుత్తమం వైకుంఠం దుష్టదమనం భూగర్భం పితవాససం త్రివిక్రమం త్రికాళగ్గం త్రిమూర్తిం నందనందనం రామం రామం హయగ్రీవం భీమం రౌద్రం భవుద్భవం శ్రీనాథ శ్రీధరం శ్రీశం మంగళం మంగళాయుధం దామోదరం దమూపీతం కేశవం కేశిశూదనం వరేణ్యం వరదం విష్ణుం మోనదం వసుదేవజం హిరణ్యారీతశం దీప్తం పురాణం పురుషోత్తమం సకలం నిష్కలం శుద్ధం నిర్గూణం గూఢశశ్వతం హిరణ్యతనుశంకాసం सूर्याजूत समप्रभं मघश्यामं चतुर्बाहुं कुशलं कमलिक्षणम्। वासुदेवं ऋषिकेशं वामनं जलसायिनं जनार्दनं हरिं कृष्णं श्रीपतिं गरुडोद्धजं वराहं पुण्डरीकक्षं नृसिंहं नरकान्तकम् आप्यक्तं शाश्वतं विष्णुं अनन्तं अजमद्वयं नारायणं गदाध्यक्षं गोविन्दं कीर्तिभाजनं गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरं वित्तारं जग्गपुरुषं जग्गीशं जग्गवाहकं चक्रपाणिं गदापाणिं शङ्खपाणिं नरोत्तमं वैकुण्ठं दुष्टदमनं भूगर्भं पीतवाससं त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नन्दनन्दनं रामं रामं हयग्रीवं भीमं रौद्रं भवोद्भवं श्रीनाथ श्रीधरं श्रीशं मङ्गलं मङ्गलायुधं दामोदरं दमुपीतं केशवं केशिशूदनं वरेण्यं वरदं विष्णुं मानदं वसुदेवजं हिरण्यारीतसन्दीप्तं पुराणं पुरुषोत्तमं सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतं हिरण्यतनुसंकासं सूर्याजूत समप्रभं मघश्यामं चतुर्बाहुं कुशलं कमलिक्षणम्। वासुदेवं ऋषिकेशं वामनं जलसायिनं जनार्दनं हरिं कृष्णं श्रीपतिं गरुडोद्धजं वराहं पुण्डरीकक्षं नृसिंहं नरकान्तकम् आप्यक्तं शाश्वतं विष्णुं अनन्तं अजमद्वयं नारायणं गदाध्यक्षं गोविंदं कीर्तिभाजनं गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरं वित्तारं जग्गपुरुषं जग्गीशं जग्गवाहकं चक्रपाणिं गदापाणिं शंखपाणिं नरोत्तमं वैकुंठं दुष्टदमनं भूगर्भं पितवाससं त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नंदनंदनं रामं रामं हयग्रीवं भीमं रौद्रं भवोद्भवं श्रीनाथ श्रीधरं श्रीशं मंगलं मंगलायुधं दामोदरं दमूपीतं केशवं केशिशूदनं वरेण्यं वरदं विष्णुं मानदं वसुदेवजं हिरण्यारीतशं दीप्तं पुराणं पुरुषोत्तमं सकलं निष्कलं शुद्धं निर्गुणं गुणशश्वतं हिरण्यतनुशंकासं सूर्याजूतसमप्रभं मघश्यामं चतुर्बाहुं कुशलं कमलिक्षणं ऋषिकेशं वामनं जलसायिनं जनार्दनं हरिं कृष्णं श्रीपतिं गरुड़ध्वजं वराहं पुंडरीकक्षं नृसिंहं नरकान्तकं आप्यक्तं शाश्वतं विष्णुं अनंतं अजमद्वयं नारायणं गदाध्यक्षं गोविंदं कीर्तिभाजनं गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरं वित्तारं जग्गपुरुषं जग्गीशं जग्गवाहकं चक्रपाणिं गदापाणिं शंखपाणिं नरोत्तमं वैकुंठं दुष्टदमनं भूगर्भं पितवाससं त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नंदनंदनं रामं रामं हयग्रीवं भीमं रौद्रं भवोद्भवं श्रीनाथ श्रीधरं श्रीशं मंगलं मंगलायुधं दामोदरं दमुपीतं केशवं केशिशूदनं वरेण्यं वरदं विष्णुं मोनदं वसुदेवजं हिरण्यारीतशं दीप्तं पुराणं पुरुषोत्तमं सकलं निष्कलं शुद्धं निर्गुणं गुणशश्वतं हिरण्यतनुसंकासं सूर्याजूतसमप्रभं मघश्यामं चतुर्बाहुं कुशलं कमलिक्षणं वासुदेवं ऋषिकेशं वामनं जलसायिनं जनार्दनं हरिं कृष्णं श्रीपतिं गरुडध्वजं वराहं पुण्डरीकक्षं नृसिंहं नरकान्तकम् आव्यक्तं शाश्वतं विष्णुं अनन्तं अजमद्वयं नारायणं गदाध्यक्षं गोविंदं कीर्तिभाजनं गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरं वित्तारं जग्गपुरुषं जग्गीशं जग्गवाहकं चक्रपाणिं गदापाणिं शंखपाणिं नरोत्तमं वैकुंठं दुष्टदमनं भूगर्भं पीतवाससं त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नंदनंदनं रामं रामं हयग्रीवं भीमं रौद्रं भवुद्भवं श्रीनाथ श्रीधरं श्रीशं मंगलं मंगलायुधं दामोदरं दमुपीतं केशवं केशिशूदनं वरेण्यं वरदं विष्णुं मोनदं वसुदेवजं हिरण्यारीतशं दीप्तं पुराणं पुरुषोत्तमं सकलं निष्कलं शुद्धं निर्गुणं गुणशश्वतं हिरण्यतनुसंकासं सूर्याजूतसमप्रभं मघश्यामं चतुर्बाहुं कुशलं कमलिक्षणं ऋषिकेशं वामनं जलसायिनं जनार्दनं हरिं कृष्णं श्रीपतिं गरुडध्वजं वराहं पुण्डरीकक्षं नृसिंहं नरकान्तकं आप्यक्तं शाश्वतं विष्णुं अनन्तं अजमद्वयं नारायणं गदाध्यक्षं गोविन्दं कीर्तिभाजनं गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरं वित्तारं जग्गपुरुषं जग्गीशं जग्गवाहकं चक्रपाणिं गदापाणिं शङ्खपाणिं नरोत्तमं वैकुण्ठं दुष्टदमनं भूगर्भं पीतवाससं त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नन्दनन्दनं रामं रामं हयग्रीवं भीमं रौद्रं भवोद्भवं श्रीनाथ श्रीधरं श्रीशं मङ्गलं मङ्गलायुधं दामोदरं दमूपीतं केशवं केशिशूदनं वरेण्यं वरदं विष्णुं मानदं वसुदेवजं हिरण्यारीतशं दीप्तं पुराणं पुरुषोत्तमं सकलं निष्कलं शुद्धं निर्गुणं गुणशश्वतं हिरण्यतनुशङ्कासं सूर्याजूतसमप्रभं मघश्यामं चतुर्बाहुं कुशलं कमलिक्षणम् ऋषिकेशं वामनं जलसायिनं जनार्दनं हरिं कृष्णं श्रीपतिं गरुडध्वजं वराहं पुण्डरीकक्षं नृसिंहं नरकान्तकम् आप्यक्तं शाश्वतं विष्णुं अनन्तं अजमद्वयं नारायणं गदाध्यक्षं गोविन्दं भाजनं गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरं वित्तारं जग्गपुरुषं జగీషం జగ్గవాహకం చక్రపాణిం గదాపాణిం శంఖపాణిం నరుత్తమం వైకుంఠం దుష్టదమనం భూగర్భం పితవాససం త్రివిక్రమం త్రికాళగ్గం త్రిమూర్తిం నందనందనం రామం రామం హయగ్రీవం భీమం రౌద్రం భవుద్భవం శ్రీనాథ శ్రీధరం శ్రీశం మంగళం మంగళాయుధం దామోదరం దమూపీతం కేశవం కేశిశూదనం వరేణ్యం వరదం విష్ణుం మోనదం వసుదేవజం హిరణ్యారీతశం దీప్తం పురాణం పురుషోత్తమం సకలం నిష్కలం శుద్ధం నిర్గూణం గూఢశశ్వతం హిరణ్యదనుశంకాసం సూర్యాజూతసమప్రభం మఘశ్యామం చతుర్బాహుం కుశలం కమలిక్షణం